राम गीता जी का पाठ छठा अध्याय श्लोक 11 से 20 तक। राम
वसुदेव सुतं पंचजानोरमर्दनम् देवकी परमानन्दम् श्रीकृष्णं वन्दे जगद्गुरुम् श्रुतौ देशे प्रतिष्ठाप्य तिरुमासनमात्मनः नाच्योत्सितं नातिनीतं शैलाजेन कुशोत्तरम् तत्रैकाग्रं मनः कृत्वा यत् चेत्तेन्द्रिय प्रिय उपवेश्यासने योज्या योगमात्मविशोद्धये समङ्काय शिरोगीवम् धारयन्नचनं स्थिर सम्प्रेक्ष्य नासिकाग्रं स्म विशस्तानवलोकय प्रशान्तात्मा विगतभिर्ब्रह्मचारी व्रते स्थित मनः संयम्यमात्रेत्सु युक्त आसीत् मात्पर योन्यन्नेवं सदात्मानं योगी नियतमानस शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नत न साति स्वप्नशीलस्य जातसो नैव चार्जुन योक्ताहारविहारस्य योक्तश्रेष्ठस्य कर्मसु योक्तस्वप्नावबोधस्य योगो भवति दुःखः यदा विनियतं चेत्त मात्मन्येवावतिष्ठते मेस्त्रिः सर्वकामेभ्यो योक्त इत्युच्यते तदा यथा दीपो निवातस्थो लिङ्गदेशोपमा स्मृता योगिनो यत चेत्तस्य युञ्जतो योगमात्मना यत्रो परमते चेत्तं निरुद्धं योगसेवया यत्र सैवात्मनात्मानं पश्यन्नात्मनि चोष्यति यत्रो परमते चेत्तं निरुद्धं योगसेवया यत्र सैवात्मनात्मानं पश्यन्नात्मनि चोष्यति वसुदेव सुतं देवं पंचजानोरमर्दनम् देवकी परमानन्दम् श्रीकृष्णं वन्दे जगद्गुरुम् श्रीकृष्णं वन्दे जगद्गुरुम्
हरे शरणम् 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 हरे शरणम 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 हरे शरणम।